सर्वेषां संस्कृतकक्षायां स्वागतम्। प्रथमतया अहम् एकं श्लोकं श्रावयामि। उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः, न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः। इत्युक्ते उद्यमेन एव कार्याणि सिध्यन्ति, न तु मनोरथैः। अस्माकं जीवने किमपि कार्यं साधयितुम् उद्यमः करणीयः। अत्र अस्मिन् श्लोके कविः सादृश्यं वदति, यथा सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति, तथा एव उद्यमं विना अस्माकं कार्यं साधयितुं न शक्यम्। यदि सिंहः खादितुमिच्छति तदा सः अरण्ये मृगयां करोति, इत्युक्ते मृगाणाम् अन्वेषणार्थं, तेषां मारणार्थं बहु प्रयासं करोति, बहु प्रयत्नं करोति सिंहः। परन्तु तस्य विपरीतक्रमेण मृगाः स्व इच्छया न कदापि सिंहस्य मुखे प्रविशन्ति। सिंहस्य मुखे मृगाः स्व इच्छया न कदापि तस्य मुखे न प्रविशन्ति। तथा एव वयमपि अत्र कार्यसाधनार्थं तीव्रं प्रयत्नं कुर्मः चेदेव अस्माकं कार्यं सिद्ध्यति। केवलं मनोरथः न पर्याप्तम्। अधुना वयं संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः। संस्कृतभारत्याः एका घोषणा अस्ति, भवन्तः जानन्ति एव। घोषणा का इत्युक्ते, जयतु संस्कृतं, जयतु मनुकुलम्। घोषणां श्रुत्वा वयं सर्वे मिलित्वा संस्कृतपठनार्थम् उद्युक्ताः भवामः। अनन्तरम् अन्या घोषणा अस्ति, अद्य अस्माकं कक्षायाम् एका नूतना बालिका आगतवती, सा संस्कृतं पठितुमिच्छति, सा अत्र एव उपविश्य पठितुम् उद्युक्ता अस्ति। सा तु केवलम् अष्टवर्षीया बालिका, सा अमेरिकायाम् एव जन्म प्राप्तवती। तस्याः नाम किम्? तस्याः नाम कादम्बरी। सा केवलम् अष्टवर्षीया बालिका अस्माकं कक्षायाम् अस्ति, कियत् सुन्दरं नाम कादम्बरी। कादम्बरी संस्कृतभाषायाम् एकः ग्रन्थः, गद्यग्रन्थः, प्रोज़ टेक्स्ट्, बाणभट्टेन विरचितं पुस्तकम् एतत्। तस्मिन् ग्रन्थे, ओ नववर्षीया बालिका वा, अस्तु भगिनी स्वागतम्।
प्लीज अनौन्स योरसेल्फ।
स्वागतम्, उत्तमं भगिनी, उत्तमं भगिनी, धन्यवादः। कृपया म्यूट् कर, धन्यवादः। अत्र सा केवलं नववर्षीया बालिका, अत्र सा केवलं नववर्षीया बालिका। मण्डल् महोदय, कृपया म्यूट् करोतु, स्पीकर् फोन् मास्तु, अहं म्यूट् करोमि, अन्यथा मा चिन्तयतु। अत्र सा तु केवलं नववर्षीया बालिका। कादम्बरी इति एक ग्रन्थस्य नाम, तस्मिन् ग्रन्थे नायिकायाः नाम अस्ति कादम्बरी। सा तु धर्मव्याख्यात्री। कादम्बरी इत्युक्ते कोकिला, या कोकिला सर्वदा धर्मविषयाणां कूजनं करोति, सा एव कादम्बरी। इत्युक्ते कादम्बरी नाम एका बालिका अद्य अस्माकं कक्षायाम् आगतवती। स्वागतं भगिनी पुनः एकवारम्। अधुना वयं संस्कृतपठनार्थं गच्छामः। अनन्तरम् अत्र गृहपाठविषये किञ्चित् अधुना पश्याम। गृहपाठः किमासीत् अत्र? गतसप्ताहे वयं लट् लकारे अपि च लोट् लकारे कानिचन वाक्यानि रचितवन्तः। अस्माकं पार्श्वे संस्कृतभारत्याः निर्मितम् एकं करपत्रमस्ति, तत् करपत्रं दृष्ट्वा तस्मात् कानिचन क्रियापदानि स्वीकृत्य लघु लघु वाक्यनिर्माणं कृतवन्तः वयं गते सप्ताहे, तथा किञ्चित् अभ्यासः अभवत्। अद्य वयम् इतोपि अधिकं तस्मिन्नेव विषये अभ्यासं कुर्मः। संस्कृतभारत्याः करपत्रं सर्वेषां पुरतः अस्ति चेत् अधुना प्रारम्भं कुर्मः. सर्वे संस्कृतभारत्याः वा अहमेव प्रेषितवती गते सप्ताहे करपत्रद्वयं. तानि करपत्राणि पुरतः स्थापयन्तु. अनन्तरं गृहपाठं किञ्चित् गृहपाठविषये पश्यामः. अत्र शायरिवळ्ळी भगिनी, भवत्याः पार्श्वे करपत्रमस्ति वा?
आं भगिनी.
अस्ति, उत्तमं. तस्मिन् करपत्रे आहत्य कति क्रियापदानि सन्ति? आहत्य इत्युक्ते इन् टोटल् करपत्रे षट्त्रिंशत् क्रियापदानि सन्ति. उत्तमं. तेषु पञ्चदशक्रियापदानि इत्युक्ते 15, वि यूस्ड् 15 वर्ब्स्. गते सप्ताहे वयं पञ्चदश क्रियापदानि उपयुज्य किञ्चित् अभ्यासं कृतवन्तः. तत्र इतोपि अवशिष्टानि क्रियापदानि कति? तत्र अवशिष्टानि इति जानाति वा? अवशिष्टानि इत्युक्ते रिमेनिङ्ग्. अवशिष्टानि क्रियापदानि कति सन्ति अत्र? एकविंशतिः क्रियापदानि
सन्ति.
उत्तमं. तस्मिन्नेव करपत्रे अधुना वयं करपत्रं तानि त्यक्त्वा तानि क्रियापदानि त्यक्त्वा अधुना वयं नूतनानि क्रियापदानि उपयुज्य वाक्यरचनां कुर्मः. सर्वे अपि करपत्रं पुरतः स्थापयन्तु. अद्य वयं षोडशपदं तत्र आरभ्य वयं अभ्यासं कुर्मः. अत्र पुटे प्रथमं पदं किं भगिनि? वदतु.
करोति भगिनि.
करोति, उत्तमं. करोति इति पदम् उपयुज्य कानिचन वाक्यानि रचयतु. भवती गृहपाठं कृतवती वा?
आं भगिनि.
करोतु.
सः करोति, सा करोति, एषः करोति, एषा करोति, भवान् करोति, भवती करोति.
उत्तमम्, उत्तमम्. इदानीं पर्यन्तं भवती केवलं कर्तृपदम् उपयुज्य कानिचन सर्वनामपदानि उपयुज्य वाक्यानि, लघुवाक्यानि केवलं. तस्मिन् वाक्ये पदद्वयम् एव अस्ति. अधुना अहं कानिचन कर्मपदानि ददामि. कर्मपदम् उपयुज्य वाक्यरचनां करोतु. अहं ददामि पूजा. पूजा इति पदम् उपयुज्य.
सः पूजा करोति.
पुनः वदतु.
सः पूजां करोति.
उत्तमं. यदि सः इत्यस्मिन् स्थाने अर्चकः इति पदं योजयामश्चेत् वदतु.
अर्चकः पूजां करोति.
उत्तमम्. अनन्तरं याचना.
भिक्षुकः याचनां करोति.
उत्तमम्. अनन्तरम् अन्यं पदं ददामि. प्रतीक्षा इत्यस्मिन् पदं कर्मपदम्.
महिला प्रतीक्षां करोति.
भगिनी अत्र स्पीकर् फोन् मास्तु भगिनी. भगिनी अत्र
महिला प्रतीक्षां करोति.
उत्तमम्. उपासना, भक्तः उपासना.
भक्तः उपासनां करोति.
उत्तमम्. अनन्तरं अलसः निद्रा. अलसः इत्युक्ते जानाति वा?
टायर्ड्
अलसः पुनः कः वदति अलसः इत्युक्ते कोऽपि जानाति वा
टायर्ड् इस् इस् टायर्ड् और
न भगिनि न भगिनि कोऽपि वदति वा कोऽपि जानाति चेत् वदन्तु नो चेत् अहमेव वदामि अत्र अलसः इत्युक्ते लेज़ि पर्सन् संस्कृतभाषायाम् अलसः भगिनि कादम्बरी भगिनी वदतु अलसः इत्युक्ते लेज़ि उत्तमम् उत्तमम् अलसः शायरिवळ्ळि भगिनी भवती करोतु अलसः निद्रा
अलसः निद्रां करोति
अनन्तरं देवः कृपा
देवः कृपां करोति
उत्तमं दया सज्जनः दया
सज्जनः दयां करोति
उत्तमं समाजसेविका सेवा
समाजसेविका सेवां करोति
उत्तमं भक्तः पूजा
भक्तः पूजां करोति
अहं कार्यम्
अहं कार्यं कुर्मः करोमि
यदि कुर्म वयं वयम् उपयुज्य वदतु
ओके वयं कार्यं कुर्मः
उत्तमम् अहं चिन्तयामि भवती जानाति एव प्रथमाविभक्तौ रूपाणि भिन्नानि भवन्ति द्वितीयाविभक्तौ रूपाणि भिन्नानि भवन्ति इति अस्माभिः अवगन्तव्यम् इदानीं पर्यन्तं भवती कर्तृपदं कर्मपदम् अपि योजयित्वा वाक्यरचनां कृतवती इदानीं वयं किं कुर्मः इत्युक्ते केवलं भवती पुनः एकवारं करोतु भगिनि अर्चक अत्र बालकः पठति इति वाक्यमस्ति अत्र पुस्तकम् इति स्थापयित्वा वदतु
बालकः पुस्तकं पठति
उत्तमं बालकः पुस्तकं पठति तदेव वाक्यं अन्यत् रूपेण अपि वक्तुं शक्नुमः कथम् अन्यरूपेण कथं वक्तुं शक्नुमः इत्युक्ते बालकः पुस्तकस्य पठनं करोति अवगच्छति वा बालकः पुस्तकं पठति तदेव तदपि साधु अनन्तरं बालकः पुस्तकस्य पठनं करोति तदपि साधु तथा एव भवती एव अन्यानि वाक्यानि अपि करोतु केवलम् अभ्यासं कुर्मः बालिका क्रीडति बालिका क्रीडां क्रीडति इति वाक्यमस्ति अहं यदा उक्तवती द्वितीयरूपेण वदतु इत्युक्ते यथा बालिका क्रीडनं करोति बालिका क्रीडति एकविधम् अन्यरूपेण अपि वयं तदेव वाक्यम् अर्थः समानः एव अन्यरूपेण अपि वयं वक्तुं शक्नुमः भक्तः अर्चति भक्तः देवम् अर्चति इति वाक्यमस्ति अन्यप्रकारेण द्वितीयप्रकारेण वक्तुं शक्नोति वा
अर्चकः देवस्य पूजां करोति
उत्तमम् अत्र देवस्य अर्चनं करोति
देवस्य अर्चनं करोति अर्चकः देवस्य अर्चनं करोति
उत्तमम् नटः नृत्यति नटः नो चेत् बालकः भोजनं खादति इति वाक्यं वदतु कथं
बालकः शाकस्य भोजनं करोति
भोजनस्य खादनं करोति
भोजनस्य खादनं करोति
अथवा रोटिकायाः खादनं यदि भवती रोटिका इति पदम् उपयुज्य वदामश्चेत् रोटिकायाः खादनं करोति बालकः पुस्तकं पठति. वाक्यं वदतु.
बालकः पुस्तकस्य पठनं करोति.
उत्तमम्. इत्युक्ते अत्र पठनं बालिका शृणोति, बालिका गीतं शृणोति इति वाक्यमस्ति. बालिका गीतं शृणोति अथवा बालिका गीतस्य श्रवणं करोति. गीतस्य श्रवणं करोति,
गीतस्य श्रवणं करोति,
तदपि समानार्थकवाक्यमेव. अत्र बालिका गीतस्य श्रवणं करोति इत्यस्मिन् वाक्ये श्रवणम् इति पदमस्ति, तथा एव पठनं, क्रीडनं, धावनं, अर्चनं, गायनम्, अनन्तरं आरोहणम्, एतानि पदानि भाववाचकपदानि इति वदामः. इत्युक्ते भाववाचकपदानि अपि उपयुज्य वयं वाक्यरचनां कर्तुं शक्नुमः, यथा भवती कृतवती. वृद्धा बालकं पश्यति इति वाक्ये वृद्धा बालकस्य दर्शनं करोति, तथापि इत्युक्ते अत्र दर्शनं, स्पर्शनं, गणनं, आगमनं, पठनं, श्रवणम् एतानि पदानि भाववाचिकपदानि. इत्युक्ते तस्य व्याकरणे तस्य नाम अस्ति ल्यूट्. ल्यूट् प्रत्ययम् उपयुज्य अपि अन्यत् प्रकारेण वाक्यरचनां कर्तुं शक्नुमः, परन्तु वाक्यस्य अन्ते करोति इति पदमागच्छति. इत्युक्ते बालकः पठति अथवा बालकः पठनं करोति, तथा एव वक्तुं शक्नुमः. यदि नमति इति पदम् उपयुज्य वदामश्चेत् बालकः नमति अथवा बालकः नमनं करोति, तथा वदामः. उत्तमं. भवती करोति इति पदम् उपयुज्य कानिचन वाक्यानि रचितवती. अनन्तरं धन्यवादः भगिनि. सुपर्व महोदय, भवान् करोति वा? वदतु महोदय. अनन्तरम् अग्रे पठतु, किं पदमस्ति तत्र?
शृणोति.
शृणोति, शृणोति इति पदम् उपयुज्य कानिचन वाक्यानि रचयतु.
एषः शृणोति, सः शृणोति, एषा शृणोति, सा शृणोति, एतत् शृणोति, तत् शृणोति, भवान् शृणोति, भवती शृणोति.
उत्तमम्. उत्तमम्. अत्र शृणोति इति पदम् उपयुज्य भवान् कानिचन वाक्यं रचितवान्. अधुना अहं कानिचन कर्मपदानि ददामि. कर्मपदं, कर्मपदं योजयित्वा वदतु. वार्ता. बालकः
वार्तां शृणोति.
उत्तमं. बालिका विषयः.
बालिका विषयं शृणोति.
उत्तमम्. अनन्तरं अधिकारी नियमः.
अधिकारी नियमं शृणोति.
उत्तमम्. बालकः श्लोकः.
बालकः श्लोकं शृणोति.
उत्तमम्. बालिका प्रवचनं.
बालिका प्रवचनं शृणोति.
महिला भाषणं.
महिला भाषणं शृणोति.
उत्तमम्. तरुणः निन्दनं.
तरुणः निन्दनं शृणोति.
अहम् आकाशवाणी.
अहम् आकाशवाणी, आकाशवाण्यां शृणोमि.
पुनः पुनः करोतु महोदय.
अहम् आकाशवाण्यां शृणवन्तः.
अत्र पश्यतु महोदय, वयं केवलं लट्लकारे एव वाक्यरचनां कुर्मः. किञ्चित् समीकरोतु, किञ्चित् समीकरोतु. यु हव् टु करेक्ट् द सेण्टेन्स् लिटिल् बिट्. अत्र कः वदति? समीर् महोदय, भवान् समीकरोति वा वाक्ये?
हलो,
न महोदय, अत्र सुबारो महोदय एकं वाक्यम् उक्तवान्, तस्मिन् समीकरोतु किञ्चित्. वाक्यं सम्यक् नास्ति महोदय, पुनः एकवारं वदतु.
अहम् आकाशवाण्यां शृणोति.
पुनः
अहम् आकाशवाणीं शृणोति.
पुनः
अहम् आकाशवाणीं शृणोति.
कोऽपि समीकरोति वा? कादम्बरी भगिनी, कादम्बरी भगिनी, भवती भगिनी, कादम्बरी भगिनी करोति वा?
आम्
करोतु. वाक्यम् अहं कर्तृपदम्, आकाशवाणी कर्मपदं, शृणोति क्रियापदम्. त्रीणि पदानि उपयुज्य सम्यक् वाक्यरचनां करोतु. एकं समीचीनं वाक्यं रचयतु.
अहम् आकाशवाणीं शृणोमि.
उत्तमं, धन्यवादः भगिनि. उत्तमं, तदेव, तावदेव. अनन्तरं सुब्बाराव महोदय, उत्तमं भगिनि. अत्र अन्यानि वाक्यानि अपि वयं रचयामः. सङ्गीतं, पुत्री सङ्गीतं महोदय करोतु.
पुत्री सङ्गीतं शृणोति.
उत्तमं. जननी रामायणप्रवचनं.
जननी रामायणप्रवचनं शृणोति.
उत्तमं. चोरः ध्वनिः.
चोरः ध्वन्यां शृणोति.
ध्वनिं प्रथमाविभक्तौ ध्वनिः इति अस्ति, द्वितीयाविभक्तौ ध्वनिम् इति भवति. ध्वनिं शृणोति. अनन्तरं उत्तमं. सीता रोदनं.
सीता रोदनं शृणोति.
उत्तमं. रोदनम् इत्युक्ते किं जानाति वा?
क्रै.
उत्तमं, उत्तमम्. अनन्तरं अनन्तरं बालकः कोलाहलः.
बालकः कोलाहलं शृणोति.
कोलाहलः, कोलाहलः इत्युक्ते कोऽपि वदति वा? कोलाहलः इत्युक्ते किं? कोलाहलः इत्युक्ते खेया. अनन्तरं लता संस्कृतपाठः.
लता संस्कृतपाठं शृणोति.
उत्तमं. बालिका गीतं.
बालिका गीतं शृणोति.
उत्तमं महोदय, धन्यवादः. तावदेव, तथा एव कानिचन लघुवाक्यानि इतोपि रचयामः. उत्तमं, धन्यवादः. अनन्तरं अग्रे अन्यत् क्रियापदं किमस्ति? समीर् महोदय, भवान् करोति वा?
ददाति.
ददाति, ददाति उपयुज्य कानिचन वाक्यानि रचयतु स्वस्य इच्छया.
लेखनी एकवारं ददाति वा?
उत्तमम्. श्रावयतु.
धनं ददातु.
पुनः
अहं धनं
ददामि.
ददामि, ओके.
अहं धनं ददामि. यदि भवान् अत्र पश्यतु महोदय, यदि भवान् लट्लकारे वक्तुम् इच्छति चेत्, प्रेसेण्ट् टेन्स्, लट्लकारे वक्तुम् इच्छति चेत् अहं धनं ददामि इति भवति. यदि भवान् लोट्लकारे, भवान् जानाति एव गते सप्ताहे वयं किञ्चित् पठितवन्तः लोट्लकारः इत्युक्ते किं, लोट्लकारे क्रियापदानि रूपाणि कथं भवन्ति इत्युक्ते पठतु, गच्छतु, आगच्छतु, शृणोतु, तथा लोट्लकारे क्रियापदानि सन्ति. यदि भवान् उत्तमपुरुषे लोट्लकारे वक्तुम् इच्छति चेत् अहं ददानि भवति लोट्लकारे. लट्लकारे वर्तमानकाले अहं धनं ददामि, अहं यदि लोट्लकारे वदामश्चेत् अहं धनं ददानि वा ददानि इति भवति. उत्तमपुरुष क्रियापदं तथा भवति. अनन्तरम् अहं कानिचन कर्मपदानि ददामि, करोतु महोदय. फलं, बालकः फलं करोतु.
अहं बालकम् अहं बालकः फलं ददातु.
अहं त्यजतु, अहं पदम् इति त्यजतु, केवलं बालकः फलम् इति उपयुज्य वदतु.
बालकं फलं ददातु.
बालकं फलं ददातु. अत्र बालकः लट्लकारे किं भवति, बालकः फलं ददाति इति भवति. बालकः फलं ददाति. बालकः कर्तृपदं, फलं कर्मपदं, ददाति इति क्रियापदम्. अनन्तरं बालिका पुष्पं करोतु.
बालिका पुष्पं ददाति.
अहं वस्त्रम्,
अहं वस्त्रं दानं ददातु.
केवलं लट्लकारे वदतु अहं वस्त्रम्.
अहं वस्त्रं ददातु.
पुनः
अहं वस्त्रं ददाति.
पुनः समीकरोतु.
अहं वस्त्रं ददाति.
अहं वस्त्रं ददामि.
ददामि. ओके.
किमर्थम् उत्तमपुरुष, अहम् इति पदम् उत्तमपुरुषे कर्तृपदम्, अतः क्रियापदमपि पुरुषम् अनुसृत्य भवति. अनन्तरं वृद्धः कण्ठहारं वाक्यं रचयतु.
वृद्धः कण्ठहार ददाति.
वृद्धः कण्ठहारं ददाति. उत्तमं. महिला
कण्ठहारं ददाति.
महिला सुवर्णं.
महिला सुवर्णं ददाति.
अहं पात्रम्.
अहं पात्रं ददामि.
उत्तमं. वृद्धः धनं.
वृद्धः धनं ददाति.
उत्तमं. महिला भिक्षा.
महिला भिक्षा ददाति.
महिला भिक्षां ददाति.
भिक्षां ददाति. महिलां भिक्षां ददाति.
महिला कर्तृपदं, भिक्षां ददाति. अनन्तरं सुधाखण्डः, बालकः सुधाखण्डः.
बालकः सुधाखण्डां ददाति.
पुनः किञ्चित् समीकरोतु.
वाट् इस् सुधाखण्डं?
सुधाखण्डं चाक् पीस्.
चाक् पीस्.
सुधाखण्डः चाक् पीस्, पीस् आफ् चाक्.
बालकः सुधाखण्डां ददाति.
सुधाखण्डं तत्र सुधाखण्डं ददाति. अनन्तरं महिला भोजनं.
महिलां भोजनं ददाति.
महिला प्रथमाविभक्तिरूपं, महिलां द्वितीयाविभक्तिरूपं, परन्तु अत्र महिला भोजनं ददाति. सम्यक् वाक्यम्. अनन्तरं नटः स्यूतः नटः स्यूतः
नटः नटः च्यूतं ददाति
उत्तमं स्यूतः इत्युक्ते बेग् अनन्तरं बालिका अङ्कनी
बालिका अङ्किनी ददाति
पुनः समीकरोतु अङ्कनी इति पदं कर्मपदं
बालकी अङ्कनां ददाति
पुनः वदतु पुनः वदतु महोदय
I don't know how अङ्कः कन्वर्ट्
अत्र अङ्कनी इति पदं कर्मपदं यदि कर्मपदमस्ति चेत् द्वितीयाविभक्तौ तस्य उपयोगः भवति इदानीं पर्यन्तं वयं कानिचन वाक्यानि रचितवन्तः अत्र अङ्कनी इति पदम् ईकारान्तस्त्रीलिङ्गपदं बालकः अङ्कनीं ददाति अत्र वयं किं कुर्मः इत्युक्ते अत्र किं कुर्मः इत्युक्ते केवलं कर्मपदम् अपि योजयित्वा वाक्यरचनां कुर्मः पुस्तके केवलं कर्तृपदम् अपि च क्रियापदम् उपयुज्य लघुवाक्यानि दत्तानि परन्तु वयम् अधुना किं कुर्मः इत्युक्ते कर्मपदम् अपि योजयित्वा वाक्यरचनां कुर्मः अनन्तरं महिला शाटिका
महिला शाटिकां ददाति
उत्तमं देवः वरं
देवः वरं वरां ददाति
वरं ददाति
वरं ददाति
उत्तमं महिला आभरणं
महिला आभरणं ददाति
अहं पुस्तकम्
अहं पुस्तकं ददामि
अहं पुस्तकं ददामि
ददामि
वृद्धः पात्रं
वृद्धः पात्रं ददाति
उत्तमम् इदानीं पर्यन्तं वयं किं कुर्मः इत्युक्ते ददाति इति क्रियापदम् उपयुज्य कानिचन वाक्यानि रचितवन्तः परन्तु अत्र ददाति इति पदम् उपयुज्य अत्र बालकः पुस्तकं ददाति इत्यस्मिन् वाक्ये बालकः किं ददाति बालकः किं ददाति
किं ददाति
तस् इति प्रश्नं पृच्छामश्चेत् तस्य उत्तरं किं भवति बालकः पुस्तकं ददाति अथवा बालिका पात्रं बालिका स्यूतं ददाति तथा किं ददाति इत्यस्मिन् विषये किञ्चित् वयं ज्ञातवन्तः परन्तु कस्मै ददाति टु हूम् यु आर् गिविङ्ग् कस्मै ददाति इत्यस्मिन् विषये वयं चतुर्थीविभक्तेः उपयोगं कुर्मः भवन्तः सर्वे जानन्ति एव संस्कृतभाषायां सप्तविभक्तयः सन्ति अपि च सम्बोधनप्रथमाविभक्तिः अपि अस्ति अत्र बालकः पुस्तकं बालिकायै ददाति तस्मै ददाति तथा भवति परन्तु तत्तु विषयान्तरमस्ति अग्रे गत्वा वयं पठिष्यामः इत्युक्ते किं ददाति तस्य उत्तरं भवति द्वितीयाविभक्तौ बालकः ददाति बालकः किं ददाति बालकः पुस्तकं ददाति बालकः पुस्तकं कस्मै ददाति टु हूम् द बाय् इस् गिविङ्ग् द बुक् टु हूम् फर् दट् आन्सर् द आन्सर् शुड् बि इन् फोर्थ् केस् कस्मै ददाति महिला भोजनं भिक्षुकाय ददाति तथा भवति तदेव सम्प्रदाने चतुर्थी इति वदामः चतुर्थीविभक्तेः उपयोगं तत्र भवति ददाति इति पदम् उपयुज्य वयं वाक्यरचनां कुर्मः चेत् तत्र कस्मै ददाति इत्यस्य उत्तरं सर्वदा चतुर्थीविभक्ते एव भवति उत्तमं महोदय अहं चिन्तयामि भवान् अवगतवान् वा महोदय Did you understand what you explained, Mahodaya?
Yes.
उत्तमम् उत्तमं महोदय, धन्यवादः. अनन्तरं
धन्यवादः.
अन्यं क्रियापदं किम् अत्र लक्ष्मी भगिनी भवती करोति वा?
आम्.
अग्रिमं क्रियापदं
प्रेषयति, एषः प्रेषयति, सः प्रेषयति, एषा प्रेषयति, सा प्रेषयति, एतत् प्रेषयति, तत् प्रेषयति.
उत्तमम्. अत्र कानिचन कर्मपदानि उपयुज्य वदतु भगिनि. बालकः आभरणं, महिला आभरणं,
महिला आभरणं प्रेषयति.
वृद्धः कण्ठहारं,
वृद्धः कण्ठहारं प्रेषयति.
अहम् आहारम्,
अहम् आहारं प्रेषयिष्यामि.
उत्तमं, प्रेषयिष्यामि, उत्तमं. नूतनं पदं भवती एव वदति वा? तत् किम्? वदतु वदतु भगिनि. अत्र पश्यतु, भवती जानाति वा भेदः कः? प्रेषयामि, प्रेषयिष्यामि, कोऽपि जानाति वा?
आं भगिनि, इट् इस् इन् फ्यूचर् टेन्स्. प्रेषयिष्यामि.
उत्तमं भगिनि, अवगच्छति वा लक्ष्मी भगिनी? उत्तमं, प्रेषयिष्यामि, तदपि अस्ति. अनन्तरं माता मिष्टान्नं,
माता मिष्टान्नं प्रेषयति.
उत्तमं. पुरुषः युतकम्,
वट् इस् द वर्ड्?
युतकं, युतकं मीन्स् शर्ट्.
What was the first word? I forgot.
Purushaha.
Purushaha utakam preshayati.
Uttamam, uttamam. Anantram, atra balakaha urukam.
Balakaha urukam preshayati.
Urukam ichukte?
Don't know.
Pant, pant.
Pant.
Uttamam. Anantram, भक्तः ग्रन्थः,
भक्तः ग्रन्थं प्रेषयति.
अहं धनम्,
अहं धनं प्रेषयिष्यामि.
केवलं लट्लकारे वदतु, वर्तमानकाले एव वदतु.
अहं धनं प्रेषयतु.
अहं धनं प्रे करोतु, कः करोति? प्रेषयामि. उत्तमम्, अहं धनं प्रेषयामि. अनन्तरं महिला शाटिका,
महिला शाटिकां प्रेषयति.
प्रेषयति, उत्तमम्, उत्तमं भगिनि, तावदेव. प्रेषयति. अनन्तरं पद्मिनी भगिनी भवती करोति वा? अनन्तरं धन्यवादः भगिनि.
आं भगिनि,
करोतु. अनन्तरं क्रियापदं
प्रक्षालयति.
उत्तमं, भवती जानाति वा इत्युक्ते किं?
वाश्. एषः प्रक्षालयति, एषा प्रक्षालयति, एतत् प्रक्षालयति, सः प्रक्षालयति, सा प्रक्षालयति, तत् प्रक्षालयति, भवान् प्रक्षालयति, भवती प्रक्षालयति.
उत्तमं, तावदेव. अनन्तरम् अधुना वयं इदानीं पर्यन्तं भवती केवलं कानिचन सर्वनामपदानि उपयुज्य वाक्यरचनं कृतवती. तत्र केवलं कर्तृपदं, सर्वनामपदम्. अधुना वयं कानिचन नामपदानि अपि च कर्मपदम् अपि योजयित्वा वाक्यरचनं कुर्मः. अहं पदद्वयं ददामि अत्र. पिता, माता, पात्रं.
माता पात्रं प्रक्षालयति. पात्रां, पात्रं,
पदं, पात्रं, पदं, पात्रं. पुनः करोतु.
माता पात्रां प्रक्षालयति, पात्रं प्रक्षालयति. ओके.
अनन्तरं यदि भवती बहुवचने वक्तुमिच्छति चेत् पात्रम् इति पदस्य बहुवचनरूपं किम्?
पात्राणि
पात्राणि उत्तमं बहुवचनम् उपयुज्य वदतु अन्यं वाक्यं
माता पात्राणि प्रक्षालयति
पात्राणि प्रक्षालयति बालिका गृहं
बालिका गृहं प्रक्षालयति
वृद्धः देवालयः
वृद्धः देवालयं प्रक्षालयति
उत्तमम् अनन्तरम् अनन्तरं बालकः चषकः
बालकः चषकं प्रक्षालयति
उत्तमं बालिका चमसः
बालिका चमसं प्रक्षालयति अहं गृहं प्रक्षालयामि
उत्तमम् अहं दर्वी
अहं दर्वी इस् इट् स्त्रीलिङ्गम् ईकारान्तं दर्वीं देन् अहं दर्वीं प्रक्षालयामि
दर्वीं प्रक्षालयामि उत्तमं धन्यवादः भगिनि अनन्तरं अत्र मण्डल् महोदय भवान् करोति वा अनन्तरं किं क्रियापदमस्ति क्रियापदं भवतः पार्श्वे
तिष्ठति
करोतु महोदय कानिचन वाक्यानि रचयतु
सा उत्तिष्ठति सा उत्तिष्ठति एतत् उत्तिष्ठति तत् उत्तिष्ठति भवान् उत्तिष्ठति भवती उत्तिष्ठति
उत्तमम् अत्र उत्तिष्ठति इति क्रियापदं अकर्मकक्रियापदम् अतः ततः कर्मपदं न स्वीकरोति अतः अहम् उत्तमपुरुषे वदतु महोदय
अहम् उत्तिष्ठामि
एषः बालिका
एषः बालिका उत्तिष्ठति
समीकरोतु महोदय एषा बालिका
उत्तिष्ठति
अनन्तरम् एषः बालकः
उत्तिष्ठति
सः
वृद्धः उत्तिष्ठति
एषः
गायकः उत्तिष्ठति
उत्तमम् अहम्
उत्तिष्ठामि
उत्तमम् अत्र उत्तिष्ठति इति क्रियापदं स्था इति धातुतः आगच्छति न कदापि कर्मपदं स्वीकरोति अतः वयं किम् उत्तिष्ठति इति न वदामः कुत्र उत्तिष्ठति तदेव वदामः अत्र कर्मपदं न स्वीकरोति अतः अग्रिमं क्रियापदं भवानेव करोतु अग्रिमं भवानेव करोतु महोदय
पुनः वदतु
अग्रिमं क्रियापदं किमस्ति द्वाविंशतिः
उपविशति
उपविशति महोदय मण्डल् महोदय स्वीकर मास्तु प्रतिध्वनिः अस्ति इको आगच्छति स्पीकर् मास्तु महोदय
सा उपविशति एतत् उपविशति तत् उपविशति भवान् उपविशति भवती उपविशति
उत्तमं तावदेव अत्रापि उपविशति इति क्रियापदं कर्मपदं न स्वीकरोति अकर्मकक्रियापदम् अनन्तरम् अग्रिमं क्रियापदं किं स्मरति 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 स्मरति
स्थापयति
अनन्तरं स्थापयति अस्ति वा करोतु महोदय स्थापयति
सा स्थापयति सा स्थापयति एतत् स्थापयति तत् स्थापयति एषा स्थापयति एषा स्थापयति भवान् स्थापयति भवती स्थापयति
किं स्थापयति अधुना पश्यामः किं स्थापयति बालकः बालकः पुस्तकं पुस्तकं
बालकः पुस्तकं स्थापयति
बालिका बालिका माला माला
बालिका मालां स्थापयति
उत्तमं वृद्धः वृद्धः ग्रन्थः ग्रन्थः
वृद्धः ग्रन्थं स्थापयति
उत्तमम् अहं पुस्तकं पुस्तकम्
अहं पुस्तकं स्थापयामि
उत्तमं महोदय अनन्तरम् अग्रिमं क्रियापदम् अग्रिमं स्मरति स्मरति
स्मरति
भवानेव करोतु भवानेव करोतु वदतु भगिनि
प्रतिध्वनि अस्ति भगिनि
प्रतिध्वनिः अस्ति महोदय अधुना वयं महोदय अहं पुनः एकवारं पुनः एकवारं पृच्छामि पृच्छामि भवान् कृपया म्यूट् करोतु म्यूट् करोतु उत्तमं हस्मुख् महोदय भवान् करोति वा अग्रिमं चतुर्विंशतिः स्मरति स्मरति इति क्रियापदम् उपयुज्य कानिचन वाक्यानि वदतु हस्मुख् महोदय अस्ति वा ओके नो चेत् अत्र अत्र हस्मुख् महोदय अस्ति वा भगिनी कादम्बरी भगिनी भवती करोति वा स्मरति करोतु भगिनि कानिचन वाक्यानि रचयतु शक्नोति वा स्मरति
स्मरति
बालकः
स्मरति
करोतु
सः स्मरति सा स्मरति तत् स्मरति एषः स्मरति एषा स्मरति एतत् स्मरति भवान् स्मरति भवती स्मरति
उत्तमम् उत्तमम् अधुना अहं एकं पदं ददामि कर्मपदम् अपि च कर्तृपदं योजयित्वा वक्तुं शक्नोति वा बालकः पाठः
बालकः पाठं स्मरति
उत्तमं बालिका कविता
बालिका कवितां स्मरति
रामः स्तोत्रम्
रामः स्तोत्रं स्मरति
सीता मार्गः
सीता मार्गं स्मरति
उत्तमं लता सूचना
लता सूचनां स्मरति
उत्तमम् अहं पाठं पाठः अहं पाठः
अहं पाठं स्मरामि
उत्तमम् उत्तमं भगिनि धन्यवादः अनन्तरम् अग्रिमं क्रियापदं किम् अस्ति
आगच्छति
आगच्छति इति भवती कानिचन वाक्यानि वदतु अहं श्रोतुमिच्छामि
आगच्छति सा आगच्छति तत् आगच्छति एषः आगच्छति एषा आगच्छति एतत् आगच्छति भवान् आगच्छति भवती आगच्छति
उत्तमम् अधुना अहं कानिचन कर्मपदानि ददामि बालकः देवालयः कुतः आगच्छति अत्र पश्यतु भगिनि कुतः आगच्छति कुतः कुतः आगच्छति इति प्रश्नं पृच्छामश्चेत् बालकः देवालयतः आगच्छति अहं कार्यालयतः आगच्छामि, माता गृहतः आगच्छति, तथा भवति। भवती अपि कर्तुं शक्नोति वा अन्यानि वाक्यानि करोतु? अत्र बालकः ग्रन्थालयः,
बालकः ग्रन्थालयतः आगच्छति।
उत्तमम्। वृद्धः वसति मन्दिरम्,
वृद्धालयः वृद्धालयः असति।
त्यजतु भगिनि, त्यजतु भगिनि। बालकः आपणः,
बालकः आपणतः आगच्छति।
उत्तमम्। महिला उद्यानम्,
महिला उद्यानतः आगच्छति।
उत्तमम्। अनन्तरम् अहं चित्रमन्दिरम्,
अहं चित्रमन्दिरतः आगच्छामि।
उत्तमं, धन्यवादः भगिनी। धन्यवादः,
धन्यवादः।
अनन्तरम् अधुना धर्ति अहं नाम सम्यक् न श्रुतवती, अत्र 959 नम्बर् अस्ति, 959-325-4250 कः अस्ति? 959
मम नाम धीति।
भगिनी भवती एव करोति, इदानीं पर्यन्तं भवती न कृतवती वा, न कृतवती इति अहं चिन्तयामि। भवती करोति
वा?
करोतु। अग्रिमं क्रियापदं किम् अस्ति?
दुःखितोऽस्मि, मम समीपे करपत्रं नास्ति।
करपत्रं नास्ति वा? इत्युक्ते अत्र षड्विंशतिः क्रियापदमस्ति, अत्र अस्ति इति क्रियापदमस्ति, अस्ति इति योजयित्वा वदतु।
स अस्ति, सा अस्ति, भवान् अस्ति, भवती अस्ति, एषः अस्ति, एषा अस्ति।
यदि लोट्लकारे वक्तुमिच्छति चेत् किं भवति?
अस्तु,
अस्तु। उत्तमम्, उत्तमम्। अत्र अहं कानिचन पदानि ददामि। पुस्तकं वदतु,
वदतु।
अत्र शृणोतु भगिनि, अस्ति इति क्रियापदम् अकर्मकक्रियापदम्, इत्युक्ते तत् पदं कर्मपदं न कदापि स्वीकरोति, अतः अकर्मकक्रियापदम् इति वदामः। अतः अत्र केवलम् अकर्मकवाक्यम् एव रचयितुं शक्यं। पुस्तकम् अस्ति, तावदेव। न कदापि किं
पुस्तकं,
तथा एव भवति, तत्र कर्मपदं न कदापि भवति। पुस्तकं, पुनः ग्रन्थः,
अत्र ग्रन्थः अस्ति,
माला,
अत्र माला अस्ति।
उत्तमं। दण्डः,
अत्र दण्डः अस्ति,
अत्र बालिका,
अत्र बालिका अस्ति,
तत्र बालकः,
अत्र बालकः अस्ति।
उत्तमम्। अनन्तरं यदि लोट्लकारे वदामश्चेत् अस्ति इति क्रियापदं, तस्य रूपं किं भवति?
अस्ति,
अस्तु, अस्तु। भवती श्रुतवती वा शुभम् अस्तु, श्रीरस्तु, तथा एव अविघ्नम् अस्तु इति वयं यदा कदापि शृणुमः, तत्र लोट्लकारे सर्वाणि अपि लोट्लकाररूपाणि, शुभमस्तु, श्रीरस्तु, अविघ्नमस्तु, तथा वदामः। परन्तु अस्ति इति क्रियापदं न कदापि कर्मपदं स्वीकरोति। अनन्तरं धन्यवादः भगिनी। अनन्तरं येन केनापि क्रमः न आगतः, आगतं वा इदानीं पर्यन्तम्? Did everybody got their turn so far? Is there anybody who didn't get their chance? अनन्तरं पुनः एकवारम् अत्र हस्मुख् महोदय, भवान् अस्ति वा अत्र? नो चेत् अत्र शायरवळि भगिनी भवती करोति वा? अनन्तरं किम् अस्ति, किं पदं, क्रियापदम् अत्र सूचयति इति? हा, सूचयति पदमस्ति, भवती एव कृतवती वा पूर्वं?
सः सूचयति, सा सूचयति, एषः सूचयति, एषा सूचयति, भवान् सूचयति, भवती सूचयति.
उत्तमम्. अनन्तरम् अत्र एकं कर्तृपदम् अपि च कर्मपदम् अत्र, बालकः सूचना,
बालकः सूचनां सूचयति,
बालिका मार्गः,
बालिकः मार्गं सूचयति,
बालिका मार्गं सूचयति,
मार्गं सूचयति.
उत्तमम्. अनन्तरम् उपायः, तरुणः उपायः,
तरुणः उपायं सूचयति.
उत्तमम्. वृद्धः समाधानं,
वृद्धः समाधानं सूचयति.
भवती जानाति वा समाधानम् इत्युक्ते?
आन्सर्.
आन्सर् इत्युक्ते तस्य अर्थः सोल्यूशन्. आन्सर् नास्ति, आन्सर् इत्युक्ते उत्तरम्. संस्कृतभाषायाम् आन्सर् इत्युक्ते उत्तरं, परन्तु समाधानम् इत्युक्ते सोल्यूशन्. अनन्तरम् उपायम्, उपायम् इत्युक्ते रेमिडि. अनन्तरं बालकः योजना, वदतु.
बालकः योजनां सूचयति.
उत्तमं. योजना इत्युक्ते किं जानाति वा?
इस् इट् प्लान्?
योजना इत्युक्ते प्लान्. उत्तमं भगिनि, धन्यवादः. अनन्तरं लक्ष्मी भगिनी, भवती अपि पुनः एकवारं करोतु. अत्र इच्छति इति क्रियापदमस्ति.
एषः इच्छति, सः इच्छति, एषा इच्छति, सा इच्छति, एतत् इच्छति, तत् इच्छति, भवान् इच्छति, भवती इच्छति.
उत्तमम्. अनन्तरम् अधुना वयं बालकः फलं,
बालकः फलम् इच्छति,
बालिका शाटिका,
बालिका शाटिकाम् इच्छति,
वृद्धः पुष्पाणि,
वृद्धः पुष्पाणि, पुष्पाणिम् इच्छति,
पुष्पाणि इच्छति. अनन्तरम् अनन्तरं महिला वस्त्रम्,
महिला वस्त्रम् इच्छति,
अहं धनम्,
अहं धनम् इच्छामि.
अनन्तरं पुरुषः गृहं,
पुरुषः गृहम् इच्छति.
उत्तमम्. वृद्धः भोजनम्,
वृद्धः भोजनम् इच्छति,
युवकः दूरवाणी,
युवकः दूरवाणीम् इच्छति,
अहं मधुरम्,
अहं मधुरम् इच्छामि.
उत्तमम्. उत्तमं भगिनि, धन्यवादः. अनन्तरं सुबारो महोदय, भवान् करोति वा? स्वीकरोति,
स्वीकरोति
कानिचन वाक्यानि.
पुस्तकं
करोतु.
एषः स्वीकरोति, सः स्वीकरोति, एषा स्वीकरोति, सा स्वीकरोति, स्वीकरोति, एतत् स्वीकरोति, तत् स्वीकरोति, भवान् स्वीकरोति, भवती स्वीकरोति.
उत्तमं. बालकः पुस्तकं,
बालकः पुस्तकं स्वीकरोति,
वृद्धः वन्दनं,
वृद्धः वन्दनं स्वीकरोति,
बालिका स्यूतः,
बालिका स्यूतः, स्यूतं स्वीकरोति.
अहं धनम्
अहं धनं स्वीकरोति स्वीकरोमि.
उत्तमं. वयं काफि
वयं काफीं स्वीकरोति.
अत्र पश्यतु महोदय, वयं काफीं स्वीकुर्मः.
वयं काफीं स्वीकुर्मः.
उत्तमम्.
अहं काफीं स्वीकरोमि. वयं काफीं स्वीकुर्मः. रामः चायं स्वीकरोति.
भिक्षुकः
भिक्षां स्वीकरोति. भिक्षां स्वीकरोति.
उत्तमम्. अनन्तरम् अन्तिमं क्रियापदमस्ति अत्र, त्रिंशत् गृह्णाति इति क्रियापदमस्ति. भवान् एव करोतु अत्र. गृह्णाति
गृह्णाति. एषः गृह्णाति, सः गृह्णाति, एषा गृह्णाति, सा गृह्णाति, एतत् गृह्णाति, तत् गृह्णाति, भवती गृह्णाति, भवान् गृह्णाति.
उत्तमं. बालिका कन्दुकः.
बालिका कन्दुकं गृह्णाति.
चोरः.
बालकः
चोरः.
चोरः मीन्स्
चोरः. चोरः तीफ्.
तीफ्. बालिका चोरः.
चोरं गृह्णाति.
चोरं गृह्णाति.
अहं प्रसादः.
अहं प्रसादं गृह्णाति. अहं प्रसादं गृह्णामि.
उत्तमं. बालकः लेखनी.
बालकः लेखनीं गृह्णाति.
बालिका आसन्दः.
बालिका आसन्दं गृह्णाति.
बालिका आसन्दं गृह्णाति. यदि अहं पूर्वमेव उक्तवती अत्र गृह्णाति इति पदमस्ति, यद्यपि हकारे अत्र णकारः अस्ति, परन्तु प्रथमं नकारम् उच्चारयामः, अनन्तरमेव हकारस्य उच्चारणं भवति. तथा एव एका प्रथा अस्ति, एका परम्परा अस्ति. तथा एव तदर्थमेव वयं गृह्णाति इति एव लिखामः, परन्तु गृह्णाति इति वदामः. इदानीं पर्यन्तं 30 क्रियापदानि योजयित्वा, कानिचन वाक्यानि वयं कर्मपदमपि योजयित्वा रचितवन्तः. अत्र स्थगयामः. अग्रिमे सप्ताहे इतोपि अन्यानि क्रियापदानि योजयित्वा वाक्यरचनं कुर्मः. अधुना वयं अत्र पुस्तके, अभ्यासपुस्तके एकं सम्भाषणमस्ति, सम्भाषणं प्रति गच्छामः. अत्र तस्मात् पूर्वम् अहम् एकं वक्तुमिच्छामि. एका घोषणा अस्ति, उत्तमं, तत् एकम् उत्तमा घोषणा. मनः क्षिपतु, कायम् अनुसरति. उत्तमम्. इट्स् ए स्लोगन्. ऐ डोण्ट् नो हौ मेनि आफ् यु हर्ड् अबौट् दिस् वन्. इट्स् ए वण्डर्फुल् स्लोगन्. मनः क्षिपतु, कायम् अनुसरति. केन् एनिबडि ट्रान्स्लेट् दिस् सेण्टेन्स्? भवन्तः अवगच्छन्ति वा?
I'll try.
प्रयत्नं करोतु भगिनि.
What you think you do?
अत्र पश्यतु न भगिनि, अत्र मनः क्षिपतु. क्षिपतु इति पदं रूपं किं भगिनि?
Is it where there is a will, there is a way?
अत्र पश्यतु, अत्र भगिनी पद्मिनी भगिनी भवती एव उक्तवती, अत्र क्षिपतु इति क्रियापदमस्ति. क्षिपतु इति पदं लोट्लकारे अस्ति, यथा गच्छतु. मनः क्षिपतु, यु थ्रो युवर् माइण्ड्. यु थ्रो युवर् माइण्ड्. कायम् अनुसरति. वदतु भगिनि.
Your body will follow.
Follow, yeah.
Uttamam. Uttamam. Throw your mind, your body will naturally follow. तथा एव वयं कार्यं कर्तुं शक्नुमः. मनः क्षिपतु, कायम् अनुसरति. अनन्तरम् अहम् अत्र क्षिपतु इति क्रियापदं लोट्लकारे अस्ति, परन्तु अनुसरति इति पदं लट्लकारे अस्ति. मनः इति पदं नपुंसकलिङ्ग सकारान्तपदं, मनः मनसि मनांसि इति वदामः. कायं कायम् अनुसरति, मनः क्षिपतु, कायम् अनुसरति. तथा एव इदानीम् एव अहम् एकं पुस्तकं पठितवती. पुस्तकस्य नाम अस्ति नाहं कर्ता हरिकर्ता. सर्वे पठन्तु, उत्तमं पुस्तकं. नाहं कर्ता हरिः कर्ता, तदेव पुस्तकस्य नाम. अनन्तरं वयम् अभ्यासपुस्तके तत्र, धन्यवादः भगिनी, अत्र त्रयोदशे पुटे एकं सम्भाषणमस्ति, सम्भाषणं पठामः शीघ्रं. कः करोति अत्र? मण्डल् महोदय, भवान् करोति वा? अत्र सम्भाषणं किम् अस्ति चेत्, अत्र ग्राहकः, सेवकः अथवा वितारकः अस्ति.
अहं करोमि.
भवती करोति वा? कादम्बरी भगिनी सेवकः, अनन्तरं लक्ष्मी भगिनी ग्राहकः. कुर्वन्तु, वयं शृणुमः द्वयोः सम्भाषणम्. अधुना वयं शृणुमः. करोतु कादम्बरी भगिनी, प्रथमं वाक्यं किम्?
भोः किम् आवश्यकम्?
ग्राहकः, काफी आवश्यकम्.
जलम् आवश्यकं किम्?
मास्तु, काफी आवश्यकम्.
स्वीकरोतु.
किञ्चित् शर्करा.
किञ्चित् शर्करा.
स्वीकरोतु. स्वीकरोतु. पुनः आवश्यकं वा?
पर्याप्तं, पुनः मास्तु.
उत्तमम्, उत्तमं भगिनि, धन्यवादः. अत्र आवश्यकं, मास्तु, पर्याप्तम् इति त्रीणि नूतनानि पदानि सन्ति. अत्र भवत्याः पुस्तके सेवकः इति अस्ति वा अथवा वितारकः इति अस्ति वा? किम् अस्ति?
वितारकः.
वितारकः, उत्तमम्. अत्र पश्यामः, अत्र वितारकः इत्युक्ते यः वितरणं करोति सः एव वितारकः. ग्राहकः इत्युक्ते यः ग्रहणं करोति सः ग्राहकः. तथा एव यः सेवां करोति सः एव सेवकः. अधुना वयं किं कुर्मः, पङ्क्तिशः पश्यामः, इत्युक्ते विल् गो लैन् बै लैन् रिगार्डिङ्ग् दिस् कान्वर्सेशन्. भगिनी कादम्बरी भगिनी, प्रथमं वाक्यं किं पठतु पुनः?
भोः किम् आवश्यकम्?
अत्र भोः इति पदमस्ति, भवती जानाति वा भोः इत्युक्ते किम्? भोः इत्युक्ते अत्र सम्बोधनम्,
सम्बोधनम्,
सम्बोधनार्थे वदामः. अत्र किम् आवश्यकम् इति पदमस्ति. साधारणतया वयं किम् इति पदं प्रश्नवाचकपदं, नपुंसकलिङ्गे प्रश्नवाचकपदं, यथा किं फलं, किं पुस्तकं, किं गृहं, किं पुष्पम् इति वदामः. इत्युक्ते किम् इति पदं प्रश्नवाचकपदम्, अपि च विशेषणत्वेन अपि तस्य उपयोगः भवति. अनन्तरम् अत्र अस्मिन् सम्भाषणे किम् इति पदम् अव्ययम् इति वदामः. किम् इति पदम् अव्ययम् अपि अस्ति, अनन्तरं प्रश्नवाचकपदं, नपुंसकलिङ्गे प्रश्नवाचकपदमपि अस्ति, यथा किं पुस्तकं, किं फलम् इति वदामः. अनन्तरं समीर् महोदय, भवान् करोति वा द्वितीयं पदं, काफी आवश्यकं द्वितीयं वाक्यं
वितारकः जलम् आवश्यकं किम्
अत्र काफी आवश्यकम् इति एकं वाक्यमस्ति अन्यत् रूपेण वक्तुं शक्नोति वा काफी आवश्यकं तदेव वाक्यं can you explain it in a different way अहं वदामि
काफी आवश्यकं वा
उत्तमम् अनन्तरम् अन्यप्रकारेण अपि वदतु
काफी आवश्यकं वा
उत्तमम् अन्यत् प्रकारेण अपि वक्तुं शक्नुमः कः प्रयत्नं करोति अहं वदामि काफी आवश्यकं किम् अनन्तरं काफी आवश्यकी वा इत्यपि समीचीनं चत्वारि रूपाणि काफी आवश्यकम् अथवा काफी आवश्यकं किम् काफी आवश्यकं वा अथवा काफी आवश्यकी अत्र उत्तमम् अनन्तरं ग्राहकः सः केवलं काफीम् एव पातुमिच्छति He just wanted to drink only coffee. सः किं वदति जलं न आवश्यकम् न आवश्यकम् इति वदामश्चेत् किं वदामः समीर महोदय करोतु वदतु न आवश्यकम्
काफी न आवश्यकम्
अथवा काफी मास्तु
काफी मास्तु
जलं मास्तु क्षम्यतां जलं मास्तु काफी एव आवश्यकम् इति सः उक्तवान् भवानेव वदतु जलम् उत्तमं वा काफी उत्तमं वा अस्माकम् आरोग्याय उत्तमम् अस्माकम् आरोग्याय किं पानीयम् उत्तमम् जलमेव उत्तमं परन्तु एषः काफीम् इच्छति प्रायः तस्य शिरोवेदना अस्ति इति भाति सः केवलं काफीम् इच्छति परन्तु जलं पातव्यम् यु सपोज् टु ड्रिङ्क् वाटर् अनन्तरं वितारकः काफीं ददाति ददाति इत्यस्मिन् अर्थे अन्यं क्रियापदमस्ति भवन्तः जानन्ति वा कोऽपि वदति वा
यच्छति
उत्तमं पुनः वदतु भगिनि उच्चैः वदतु
यच्छति
यच्छति उत्तमं ददाति यच्छति अन्यत् क्रियापदं परन्तु अर्थः समानः अनन्तरं वितारकः काफीं ददाति ग्राहकाय ददाति वितारकः ग्राहकाय काफीं ददाति अनन्तरं किं पृच्छति किञ्चित् शर्करां योजयतु किञ्चित् शर्करां योजयतु इति सः वदति किमर्थं तथा कः वदति वदतु काफी रुचिकरं नास्ति काफी रुचिकरं नास्ति अतः सः वदति इतोपि शर्करां योजयति वा इतोपि शर्करां मिलति वा अथवा शर्करायाः मिश्रणं करोति वा इतोपि आवश्यकम् इति सः वदति तथा वितारकः चषके शर्करां स्थापयति अनन्तरम् इतोपि शर्कराम् आनीय सः ग्राहकाय ददाति तदा ग्राहकः किं वदति हि जस्ट् गेव् इनफ् शुगर् आफ्टर्वर्ड्स् किं वदति पुनः आवश्यकं वा इति वदति तदा किं वदति ग्राहकः पर्याप्तं पुनः मास्तु पर्याप्तं पुनः मास्तु इति सः सः वदति. अत्र वयं पर्याप्तं, मास्तु, आवश्यकं, ददातु, स्वीकरोतु इति कानिचन नूतनानि पदानि ज्ञातवन्तः. अत्र सेवकग्राहकयोः मध्ये सम्भाषणमस्ति. सम्भाषणं द्वारा वयं कानिचन नूतनानि पदानि अस्माभिः ज्ञातानि. अनन्तरं भवन्तः सर्वे अपि गृहं गत्वा मात्रा सह वा अथवा पुत्र्या सह वा, पुत्रेण सह वा, भार्यया सह वा, येन केनापि सह गृहे यथेष्टं कानिचन नूतनानि पदानि योजयित्वा सम्भाषणं कुर्वन्तु. अत्र काफी शर्करा इति अस्ति, परन्तु काफी शर्करा अनयोः पदयोः स्थाने भवन्तः जलं, चायम्, अन्नं, फलं, मिष्टान्नम् अथवा चाकलेहः अथवा पयोहिमं, पयोहिमम् इत्युक्ते ऐस्क्रीम्, एतानि पदानि योजयित्वा भवन्तः अपि सर्वे गृहे एतानि पदानि योजयित्वा सम्भाषणं कुर्वन्तु. In this conversation you are able to understand the meaning of using the same words. You can practice the same conversation at home. Mute karotu mahodaya krupaya dhani hasti. Sarve गृहं गत्वा सम्भाषणं पुनः एकवारम् अभ्यासं करोतु. अधुना वयम् एकम् अन्यं सम्भाषणं पठामः शीघ्रं. सर्वेषां पार्श्वे तृतीयं करपत्रं गीतापठनम् इति सम्भाषणमस्ति. सर्वे अन्यं करपत्रं पुरतः स्थापयन्तु. सर्वेषां पार्श्वे अस्ति वा गीतापठनम्?
अस्ति भगिनि.
अस्ति वा? पद्मिनी भगिनी, भवती अत्र आचार्यः, अनन्तरं सुब्बाराव् महोदय, भवान् अशोकः, अशोकः सम्भाषणं कुर्वन्तु.
नमो नमः मध्ये. नमो नमः. अद्य गीतापठनम् आवश्यकं किम्?
आम् आवश्यकम्. निश्चयेन आवश्यकम् आचार्य. गीतापठनार्थ किं गीतापठनार्थ
किं किम् आवश्यकं
किं किम् आवश्यकम्
पठनार्थं
गीतापठनार्थं गीतापठनार्थं किं किम् आवश्यकम्?
गीतापुस्तकम् आवश्यकम्.
लिपिज्ञानम् आवश्यकं किम्?
आम् लिपिज्ञानम् आवश्यकम्.
कृष्णफलकम् आवश्यकं किम्?
कृष्णफलकं मास्तु.
मम उच्चारणदोषः अस्ति, भवतः सहायम् आवश्यकम् आचार्य.
भयं मास्तु, अहं साहाय्यं करोमि.
श्लोकानां कण्ठस्थीकरणम् आवश्यकं किम्?
मास्तु, प्रतिदिनं पारायणं पर्याप्तं, तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति. भवतः गीतापुस्तकम् आवश्यकं किम्?
मम मास्तु, गोविन्दस्य आवश्यकम्. मम गृहे व्याख्यानसहितं पुस्तकम् अस्ति, आननीय आनयामि किम्?
मास्तु मूलमात्रं पर्याप्तम्।
अस्तु आचार्य, धन्यवादः।
स्वागतम्।
उत्तमम्। अधुना वयं कृपया म्यूट् करोतु महोदय, अत्र ध्वनिः अस्ति। अत्र अहं म्यूट् करोमि। अत्र बहु ध्वनिः अस्ति। अतः अधुना वयं पङ्क्तिशः पश्यामः। अत्र नमो नमः, अद्य गीतापठनम् आवश्यकं किम्? सः अशोकः वदति, आम् आवश्यकं, निश्चयेन आवश्यकम्। आचार्य, गीतापठनार्थं किं किम् आवश्यकम्? गीतापठनार्थं तु गीतापुस्तकम् आवश्यकं, वयं जानीमः एव। अत्र लिपिज्ञानम् इति एकं पदमस्ति। लिपिज्ञानम् इत्युक्ते किं, कोऽपि वदति वा?
रीडिङ्ग्, हौ टु रीड् द लेटर्स्।
लिपिज्ञानम् इत्युक्ते आल्फबेट् नालेड्ज्। अनन्तरं आल्फबेट् नालेड्ज्। अनन्तरं अत्र आम् लिपिज्ञानम् आवश्यकम्। अनन्तरं सः वदति, कृष्णफलकम् आवश्यकं किम् इति वदति। संस्कृतभाषायां कृष्णवर्णः इत्युक्ते किं, कः वदति? कृष्णवर्णः, कृष्णवर्णः इत्युक्ते ब्लाक्। अत्र कृष्णफलकम् इत्युक्ते
स्लेट्।
कः वदति? ब्लाक्बोर्ड्। ब्लाक्बोर्ड्, कृष्णफलकम् इत्युक्ते ब्लाक्बोर्ड्। कृष्णफलकं न आवश्यकम्। अतः सः आचार्यः वदति, कृष्णफलकं मास्तु, सः वदति। अनन्तरं प्रकाशः किं वदति? मम उच्चारणदोषः अस्ति, भवतः साहाय्यम् आवश्यकम् आचार्य इति वदति। आचार्यः वदति, भयं मास्तु भोः, अहं साहाय्यं करोमि, अहं भवतः साहाय्यं कर्तुमिच्छामि, भयं मास्तु इति वदति। अनन्तरं प्रकाशः किं वदति? श्लोकानां कण्ठस्थीकरणम् आवश्यकं वा इति वदति। श्लोकानां कण्ठस्थीकरणं न आवश्यकम्। अत्र पश्यामः, कण्ठस्थीकरणम् इति एकं पदमस्ति। अत्र श्लोकानां कण्ठस्थीकरणम् अस्माकं कर्तव्यं वा इति सः पृच्छति। अत्र कण्ठस्थः इति पदमस्ति। वयं सर्वे जानीमः, गृहस्थः इत्युक्ते यः गृहे तिष्ठति सः गृहस्थः। तथा एव यः श्लोकः कण्ठे तिष्ठति सः तदेव कण्ठस्थः। कण्ठस्थः इत्युक्ते श्लोकः कण्ठे तिष्ठति, तदर्थमेव कण्ठस्थः इति वदामः। तां प्रक्रियां, सा प्रक्रिया अस्ति, तां प्रक्रियां किं वदामः? कण्ठस्थीकरणम् इति वदामः। अनन्तरं सः वदति, प्रतिदिनं कण्ठस्थीकरणम् आवश्यकं वा इति प्रश्नं पृच्छति। परन्तु सः आचार्यः वदति, मास्तु, कण्ठस्थीकरणं न आवश्यकं, प्रतिदिनं पारायणं पर्याप्तं। तेन स्वयमेव श्लोकाः कण्ठस्थाः भवन्ति, भवतः गीतापुस्तकम् आवश्यकं किम् इति वदति। अनन्तरं अत्र एकम् अन्यं पदमस्ति, व्याख्यानसहितं। कः वदति? व्याख्यानम् इत्युक्ते किम्?
अलाङ्ग् वित् द मीनिङ्ग्।
न भगिनि, सम्यक् सम्यक् वदतु। अत्र व्याख्यानम्
इत्युक्ते
कामेण्ट्रि, कामेण्ट्रि। व्याख्यानम् इत्युक्ते कामेण्ट्रि। अत्र व्याख्यानसहितं पुस्तकम् आवश्यकं वा इति प्रकाशः आचार्यं पृच्छति। तथा आचार्यः किं वदति? मास्तु भोः, मूलमात्रं पर्याप्तम्। मूलमात्रम् इत्युक्ते केवलं मूलग्रन्थः, मूलग्रन्थः आवश्यकः, परन्तु व्याख्यानसहितं पुस्तकं तस्य आवश्यकता एव नास्ति। अधुना किञ्चित् कालं पठनानन्तरं वयं व्याख्यानविषये चिन्तयामः, तदेव आचार्यस्य उद्देश्यः. अतः सः वदति भोः व्याख्यानसहितपुस्तकस्य आवश्यकता एव नास्ति, केवलं मूलमात्रग्रन्थमस्ति चेत् पर्याप्तं सः वदति. अनन्तरं अत्र एकं नूतनं पदमस्ति, परायणं, पारायणं, पारायणमिति पदमस्ति. भवन्तः सर्वे जानन्ति एव पारायणमित्युक्ते किं. पारायणमित्युक्ते वयं नित्यं भगवद्गीतायाः पारायणं वा अथवा ललितासहस्रनामपारायणं वा वयं कुर्मः. परन्तु अत्र परायणं, परायणम् अन्यं पदमस्ति. परायणं भिन्नपदं, पारायणम् अन्यं पदं. यः नित्यं पारायणं कृत्वा श्लोकानां पारायणं यः श्लोकानां पारायणं करोति सः परायणं प्राप्नोति इति अर्थः. द वन् हू चाण्ट् आल् दीस् श्लोकास् हि विल् रीच् हिस् फैनल् डेस्टिनेशन् आफ् लैफ् जर्नि. Final destination of journey is called parayanam. Ichukte shlokanam parayanam krutva vayam parayanam prapnumaha iti tasya arthah. Parayanam bhinnam padam, parayanam bhinnam padam. Aham chintayami adhuna vayam avashyakam mastu paryaptam dhanyavadaha swagatam ityadini padani ज्ञातवन्तः. अधुना नववादनम् अभवत्. यदि भवन्तः इच्छन्ति चेत् इतोपि पञ्चनिमिषात् पर्यन्तम् अन्यं सम्भाषणमपि अस्ति, नो चेत् अग्रिमे सप्ताहे कर्तुं शक्नुमः. भवन्तः किं कर्तुमिच्छन्ति? इदानीं पर्यन्तं येन केनापि नागतः वा? सो फार् डिड् एनिबडि डिडेण्ट् गेट् ए चान्स् टु पार्टिसिपेट् इन् द क्लास्? Please raise your voice. Sarve krutavan, sarve krutavan. Bhavantah, 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 kim chintayanti? Vadatu bhagini, pruchatu bhagini.
Parayanam ichyukte kim?
Parayanam, parayanam ichyukte slokanam pathanam. भवती प्रतिदिनं शुक्लाम्बरधरम् इति पठति, तदेव पारायणं, केवलं श्लोकानां पठनं करोतु. अहं प्रतिदिनं प्रतिदिनं श्लोकानां पारायणं करोमि. एकं वाक्यं
अस्तु.
भवती प्रतिदिनं शुक्लाम्बरधरं वदति वा? उत्तमं भगिनि, उत्तमं. भवन्तः किं चिन्तयन्ति? इदानीम् एकम् अन्यं सम्भाषणमपि अस्ति, तदपि कुर्मः वा, नो चेत् अग्रिमे सप्ताहे कुर्मः वा? केवलं दशनिमिषात् पर्यन्तं कुर्मः. सर्वे किं चिन्तयन्ति? वाट्
भगिनी, अहं गन्तुमिच्छामि.
उत्तमं. सर्वे अग्रिमे सप्ताहे मिलामः. अधुना अत्र स्थगयामः. एकम् अन्यं सुभाषणं सम्भाषणमपि अस्ति, यथा तस्य शीर्षिका अस्ति शाकापणः. शाकापणः इति नाम्ना एकम् अन्यं सम्भाषणमस्ति, तत् वयम् अग्रिमे सप्ताहे करिष्यामः. उत्तमम्.
धन्यवादः.
अग्रिमे सप्ताहे